नारायण कवचम् इत्यात्मानं परं ध्यायेध्येयं षट्शक्तिभिर्युतम् विद्या तेजस्तपो मूर्तिमिमं मन्त्रमुदाहरेत् हरिर्विदध्यान्मम सर्वरक्षाम्यस्ताङ्घ्रिपद्मः पतगेन्द्रपृष्ठे दरारिचर्मासि गदेषु चापपाशान् दधानोऽष्टगुणोऽष्टबाहुः जलेषु माम् रक्षतु मत्स्यमूर्तिर्यादो गणेभ्यो वरुणस्य पाशात् स्थलेषु मायावटु वामनो व्यात्रिविक्रमः सोऽवतु विश्वरूपः दुर्गेष्वटव्याजिमुखादिषु प्रभुः पायान्नृसिंहो सुरयूथपारिः विमुञ्चतो यस्य महात्तः सन्दिशो विनेदुन्यपतंश्च गर्भाः रक्षत्वसौ मे ध्वनियज्ञकल्पस्वदंष्ट्रयोन्नीतधरो वराहः रामोद्रिकूटेष्वध विप्रवासे स लक्ष्मणो व्याध्वरताग्रजो माम् मामुग्रधर्मादखिलात्प्रमादान्नारायणः पातु नरश्च हासात् दत्तस्वयोगादध योगनाथः पायान्गणेशः कपिलश्च बन्धात् सनत्कुमारो वतु कामदेवाधयाननो माम् पथि देवहेलनात् देवर्षिवर्यः पुरुषार्चनान्तरात् कूर्मो हरिर्माम् निरयादशेषात् धन्वन्तरिर्भगवान् पात्वपथ्याद्वन्द्वाद्भयादृषभो निर्जितात्मा यज्ञश्च लोकादवताज्जनान्ताद्बलोगणाक्रोधवशादहीन्द्रः द्वैपायनो भगवानप्रबोधाद्बुद्धस्तु पाषण्डगणात्प्रमादात् कल्किः कलेः कालमलात्प्रपातु धर्मावनायोरुकृतावतारः माम् केशवो गदया प्रातरव्याद्गोविन्द आसङ्गवमात्तवेणुः नारायणः प्राह्न उदात्तशक्तिर्मध्यम् दिने विष्णुररीन्द्रपाणिः देवो पराह्ने मधुहोग्रधन्वा सायम् त्रिधामावतु माधवो माम् दोषे हृषीकेश उताद्धरात्रे निषीध एको वतु पद्मनाभः श्रीवत्सधामा पररात्र ईशः प्रत्यूष ईशोऽसि धरो जनार्दनः दामोदरो व्यादनुसन्ध्यम् प्रभाते विश्वेश्वरो भगवान् कालमूर्तिः चक्रम् युगान्तानलतिग्मनेमि भ्रमत्समन्ताद्भगवत्प्रयुक्तम् दन्तघ्रिदन्तघ्यरिसैन्यमाशु कक्षम् यथा वातसखो हुताशः गदेश निःस्पर्शन विस्फुलिङ्गे निष्पिण्डि निष्पिण्ड्यजितप्रियासि कूष्माण्डवैनायकयक्षरक्षो भूतग्रहांश्चूर्णय चूर्णयारीन् त्वम् यातु धानप्रमथप्रेतमातृपिशाच विप्रग्रहघोरदृष्टीन् दरेन्द्रविद्रावय कृष्णपूरितो भीमस्वरोरेहृदयानि कम्पयन् त्वम् तिग्मधारासि वरारिसैन्यमीशप्रयुक्तो मम छिन्दि छिन्दि चक्षूंषि शर्मन् शतचन्द्रछादयद्विषामघोनाम् अरपापचक्षुषाम् यन्नो भयं ग्रहेभ्यो भूत्केतुभ्यो नृभ्य एव च सरीसृपेभ्यो दंष्ट्रिभ्यो भूतेभ्यो घेभ्य एव च सर्वाण्येतानि भगवन्नामरूपास्त्रकीर्तनात् प्रयान्तु संक्षयम् सद्यो ये मे श्रेयः प्रदीपकाः गरुडो भगवान् स्तोत्रस्तोमश्छन्दोमयः प्रभुः रक्षत्वशेष कृच्छ्रेभ्यो विश्वक्सेनस्य वाहनम् सर्वापद्भ्यो हरेर्नामरूपयानायुधानिनः बुद्धीन्द्रियमनः प्राणान् पान्तु पार्षदभूषणाः यथा हि भगवानेव वस्तुतः सदसच्चयत् सत्येनानेन नः सर्वे यान्तु नाशमुपद्रवाः यथैकात्म्यानुभावानाम् विकल्परहितः स्वयम् भूषणायुधलिङ्गाख्या धत्ते शक्तिः स्वमायया तेनैव सत्यमानेन सर्वज्ञो भगवान् हरिः पातु सर्वैस्वरूपैर्नः सदा सर्वत्र सर्वगः विदिक्षु दिक्षूर्ध्वमधः समन्तादन्तर्बहिर्भगवान्नारसिंहः प्रहापयन् लोकभयम् स्वनेन स्वतेजसाग्रस्तसमस्ततेजाः मघवन्निदमाख्यातम् वर्म नारायणात्मकम् विजेष्यस्यञ्जसा येन दंशितो सुरयूथपान् येतद्धारयमानस्तु यम् पश्यति चक्षुषा पदा वा संस्पृशेत् सद्यः साध्वसात् स विमुच्यते न कुतश्चिद्भयम् तस्य विद्याम् धारयतो भवेत् राजदस्युग्रहादिभ्यो व्याध्यादिभ्यश्च कर्हिचित् इमाम् विद्याम् पुरा कश्चित् कौशिको धारयन् द्विजः योगधारणया स्वाङ्गम् जहौ समरुधन्वने तस्योपरि विमानेन गन्धर्वपतिरेकदा ययौ चित्ररथस्त्रीभिर्वृतो यत्र द्विजक्षयः गगनान्यपतत् सद्यः स विमानो ह्यवाक्षिराः सवालखिल्यवचनादस्थीन्यादाय विस्मितः प्राप्य प्राच्याम् सरस्वत्याम् स्नात्वा धाम स्वमन्वगात् ययैदम् शृणुयात्काले यो धारयति चादृतः तम् नमस्यन्ति भूतानि मुच्यते सर्वतो भयात् श्रीशुक उवाच एताम् विद्यामधिगतो विश्वरूपाच्छतक्रतुः त्रैलोक्यलक्ष्मीम् बुभुजे विनिर्जित्य मृधे सुरान् इति श्रीमद्भागवते महापुराणे अष्टादशसाहस्र्याम् संहितायाम् वैयासिक्याम् षष्ठस्कन्धे नारायणवर्मोपदेशो नामाष्टमोऽध्यायः।